Sairam, dear listeners, and welcome back to the studios of Radio Sai Prashanthiralayam, giving you a live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to get back to the studios to continue with the evening session of this Thursday's live program. And this is Team Radio Sai's Ganesh inviting you all to yet another session of Radio Sai Vedam Tutor. And Praveena sir is back with us to continue with the Aruna Prashnam. Without any further delay, over to Praveena sir.
Om Sri Sai Ram. We shall commence this session with chanting of Ganesha Prarthana Mantra together.
Om Gananantva Ganapati Gum Hava Mahe Kavinka Vinam Upamashravastamam Jeshtarajam Brahmanam Brahmanaspata Anashrunvan Notibhissedasadhanam Prano Devi Saraswati Vajibhir Vajinivati Dhinama Vitriyavato Ganeshaya Namaha Saraswatye Namaha Shri Gurubhyo Namaha Harihi Om Bhadram Karne Vishrunuyama Devaha Bhadram Pashye Maksha Viryajatraha Sthirairangai Stushtuvagum Sastanubhihi Vyashema Devahi Tayyadayuhu Swastina Indro Vriddhashravaha Swastina Pusha Vishwavedaha Swasti nastarksho arishtanemihi, swasti no brihaspatir dharato, om shanti shanti shanti.
Om Sri Sai Ram, before we proceed learning of this Arunam, we shall quickly revise last few paragraphs that we have learned. We will start from the paragraph number 100. We will repeat each sentence twice and then proceed.
Om Kopya Grinhate Kopya Grinhate Tadakshinata Upadadhate Tadakshinata upadadhate etavaite jasvi nirapaha etavaite jasvi nirapaha teja evasya dakshinato dadhate teja evasya dakshinato dadhate tasmad dakshino dasve jasvitaraha Tasmadakshinordhasteja svitaraha Sthavara grinhate Sthavara grinhate Tapaschadupadadhate Tapaschadupadadhate Pratishthita vaisthavara Paschadeva pratitishthate Paschadeva pratitishthate Vahantir grinhate Vahantir grinhate Ta uttarata upadadhate Ta uttarata upadadhate Ojasava eta vahamte hivodgate Riva akochate riva dhavante Ojasava eta vahante rivodgate riva akochate riva dhavante Oja evasyo uttarato dadhate Oja evasyo uttarato dadhate Tasmad uttarordha ojasvitaraha Tasmad uttarordha ojasvitaraha Sambharya grinhate सन्धार्या गृह्णाते तामध्य उपदधाते तामध्य उपदधाते इयं वै सम्भार्याः इयं वै सम्भार्याः अस्यामेव प्रतितिष्ठते अस्यामेव प्रतितिष्ठते पल्वल्या गृह्णाति पल्वल्या गृह्णाति ता उपरिष्टादुपादधाते ता उपरिष्टादुपादधाते असौ वै पल्वल्याः असौ वै पल्वल्याः अमुष्यामेव प्रतितिष्ठते अमुष्यामेव प्रतितिष्ठते दिक्षुपदधाते दिक्षुपदधाते दिक्षु वा आपः दिक्षु वा आपः अन्नं वा आपः अन्नं वा आपः अद्भ्यो वा अन्नं जायते अद्भ्यो वा अन्नं जायते यदेवाद्भ्योऽन्नं जायते यदेवाद्भ्योऽन्नं जायते तदवरुन्धे तदवरुन्धे तं वा एतमरुणाः केतवो वातरशन ऋषयो चिन्वन् तं वा एतमरुणाः केतवो वातरशन ऋषयो चिन्वन् तस्मादारुणकेतुकः तस्मादारुणकेतुकः तदेशाभ्यनोक्ता तदेशाभ्यनोक्ता केतवो अरुणाशश्च केतवो अरुणाशश्च ऋषयो वातरशनाः ऋषयो वातरशनाः प्रतिष्ठागुं शतधाहे प्रतिष्ठागुं शतधाहे समाहितासो सहस्रधाय समिते समाहितासो सहस्रधाय समिते शतशश्चैव सहस्रशश्च प्रतितिष्ठते शतशश्चैव सहस्रशश्च प्रतितिष्ठते य एतमग्निञ्चिनुते य एतमग्निञ्चिनुते य उचैनमेवं वेद य उचैनमेवं वेद जानुदग्नेमुत्तरवेदें खात्वा जानुदग्नेमुत्तरवेदें खात्वा अपां पूरयते अपां पूरयते अपागुं सर्वत्वाय अपागुं सर्वत्वाय पुष्करपर्णगुं रुक्मं पुरुषमित्युपदधाते पुष्करपर्णगुं रुक्मं पुरुषमित्युपदधाते तपो वै पुष्करपर्णम् तपो वै पुष्करपर्णम् सत्यगुं रुक्मः सत्यगुं रुक्मः अमृतं पुरुषः अमृतं पुरुषः एतावद्वावास्ते एतावद्वावास्ते यावदेतत् यावदेतत् यावदेवास्ते यावदेवास्ते तदवरुन्धे तदवरुन्धे कूर्ममुपदधाते कूर्ममुपदधाते अपामेव मधवमवरुन्धे अपामेव मधवमवरुन्धे
विल् रिपीट् अपामेव मेधमवरुन्धे
अपामेव मेधमवरुन्धे अपामेव मेधमवरुन्धे अथो स्वर्गस्य लोकस्य समष्ट्यै अथो स्वर्गस्य लोकस्य समष्ट्यै अपमापामपः सर्वाः अपमापामपः सर्वाः अस्मादस्मादितोमुतः अस्मादस्मादितोमुतः అగ్నిర్వాయుశ్చ సూర్యశ్చ అగ్నిర్వాయుశ్చ సూర్యశ్చ సహసంచస్కరర్ధియా ఇతి వాయువశ్వారశ్మిపతయః లోకం ప్రణ ఛిద్రం ప్రణ యాస్తిస్రః పరమజాః ఇంద్రఘోషావో వసుభిరేవాహ్యేవేతి పంచచితయ ఉపదధాతి పాంతోగ్నిః యావహేవాగ్నిః తంచినుతే లోకం ప్రణయా ద్వితీయాముపదధాతి పంచపదావై విరాట్ తస్యావా ఇయం పాదః అంతరిక్షం పాదః ద్యౌః పాదః దిశః పాదః పరోరజాః పాదః విరాజ్యేవ ప్రతితిష్ఠతి యేతమగ్రించినుతే యౌచైనమేవం వేద అగ్నిం ప్రణీయోపసమాధాయ తమభిత ఏత అభీష్టకా ఉపదధాతి అగ్నిహోత్రే దర్శపూర్ణమాసయోః పశుబంధే చాతుర్మాస్యేషు అథో ఆహుః సర్వేషు యజ్ఞక్రతుష్విది అతః స్మాహారుణస్వాయంభువః సావిత్రః సర్వోగ్నిరిత్యననుషంగమన్యామహే నానావా ఏతేషాం వీర్యాణి కమగ్రించినుతే సత్రియమగ్రించిన్వానః కమగ్రించినుతే సావిత్రమగ్రించిన్వానః కమగ్రించినుతే నాచికేతమగ్రించిన్వానః కమగ్రించినుతే చాతుర్హోత్రియమగ్నించిన్వానః కమగ్నించినుతే వైశ్వసృజమగ్నించిన్వానః కమగ్నించినుతే ఉపానువాక్యమాశుమగ్నించిన్వానః కమగ్నించినుతే ఇమమారుణకేతుకమగ్నిన్చిన్వాన ఇతి వృషావ అగ్నిః వృషాణౌ సగ్రస్ఫాలయేత్ హన్యేతాస్య యజ్ఞః తస్మాన్నానుషజ్యః సోత్తరవేదిషు క్రతుషు చిన్వేత ఉత్తరవేద్యాగహ్యగ్నిశ్చీయతే
ప్లీజ్ రిపీట్ ఆఫ్టర్ మీ
ఉత్తరవేద్యాగహ్యగ్నిశ్చీయతే
ప్రజాకామశ్చిన్వేత
ప్రజాపత్యో వా ఏషోగ్నిః ప్రజాపత్యాః ప్రజావాన్భవతి య ఏవం వేద పశుకామశ్చిన్వేత సంజ్ఞానం వా ఏతత్పశూనాం యదాపహ పశూనామేవ సంజ్ఞానేగ్నిం చినుతే పశుమాన్భవతి య ఏవం వేద
ఫ్రమ్ హియర్ ప్లీజ్ రిపీట్ ఆఫ్టర్ మీ ట్వైస్ వృష్టికామశ్చిన్వేత
ఆపో వై వృష్టిః
పర్జన్యో వర్షుకో భవతి
పర్జన్యో వర్షుకో భవతి య ఏవం వేద
ఆమయావిచిన్వేత ఆపో వై భేషజం భేషజమేవాస్మై కరోతి అభిచరగ్గశ్చిన్వేత వజ్రో వా ఆపః వజ్రమేవ భ్రాతృవ్యేభ్యః ప్రహరతి
స్పృణుత ఏనం
తేజస్కామో యశస్కామః
ब्रह्मवर्चसकामस्वर्गकामश्चिन्वीता एतावद्वावास्ते यावदेतत्
यावदेवास्ते
यावदेवास्ते
तदवरुन्धे
तस्यैतद्व्रतम् तस्यैतद्व्रतम् वर्षति न धावेत्
नौ लेट् अस् रिवैस् दीस् टु पेराग्राफ्स् दट्स् पेराग्राफ् नम्बर् 110 एण्ड् 111 रिपीटिङ्ग् ईच् सेण्टेन्स् ट्वैस्
वृष्टिकामश्चिन्वेता आपो वै वृष्टिः पर्जन्यो वर्षुको भवति य एवं वेदा आमयावेचिन्वेता आपो वै भेषजम् भेषजमेवास्मै करोति सर्वमायुरेते अभिचरग्रश्चिन्वेता वज्रो वा आपः वज्रादेव प्रहरते शृणुत एनम् तेजस्कामो यशस्कामः ब्रह्मवर्चसकामस्वर्गकामश्चिन्वेता एतावद्वावास्ते यावदेवास्ते तदवरुन्धे तस्यैतद्व्रतम् वर्षति न धावेत्
प्लीज रिपीट आफ्टर मी ट्वाइस अमृतं वा आपः
अमृतस्यानन्तरित्यै नाप्सुमूत्रपुरीशङ्कुर्यात्
ननिष्ठीवेत्
ननिष्ठीवेत्
न विवसनस्न्यायात्
गुह्यो वा एषोऽग्निः
एतस्याग्नेरनतिदाहाय
न पुष्करपर्णानि
हिरण्यं वाधितिष्ठेत् एतस्याग्ने
एतस्याग्ने
रणभ्यारोहाय
रणभ्यारोहाय रणभ्यारोहाय
एतस्याग्नेरनभ्यारोहाय
एतस्याग्नेरनभ्यारोहाय एतस्याग्नेरनभ्यारोहाय
न कूर्मस्यास्नीयात्
न कूर्मस्यास्नीयात् न कूर्मस्यास्नीयात्
नोदकस्य
नोदकस्य नोदकस्य
घातुकान्येन मोदकानि
घातुकान्येन मोदकानि घातुकान्येन मोदकानि
भवन्ति
भवन्ति भवन्ति
नोदकस्य घातुकान्येन मोदकानि भवन्ति
नोदकस्य घातुकान्येन मोदकानि भवन्ति नोदकस्य घातुकान्येन मोदकानि भवन्ति
अघातुका आपः
अघातुका आपः अघातुका आपः
य एतमग्निं चिनुते
य एतमग्निं चिनुते य एतमग्निं चिनुते
य उचैनमेवं वेद
य उचैनमेवं वेद य उचैनमेवं वेद
वी शल नाउ रिपीट ई सेंटेंस ट्वाइस ऑफ दिस पैराग्राफ
अमृतं वा आपः अमृतं वा आपः अमृतस्यानन्तरित्यै अमृतस्यानन्तरित्यै नाप्सु मूत्रपुरीशं कुर्यात् नाप्सु मूत्रपुरीशं कुर्यात् न निष्ठेवेत् न निष्ठेवेत् न विवसनस्नायात् न विवसनस्नायात् गुह्यो वा एषो गृहे गुह्यो वा एषो गृहे एतस्याग्नेरनतिदाहाय एतस्याग्नेरनतिदाहाय न पुष्करपर्णानि हिरण्यं व्याधितिष्ठेत् न पुष्करपर्णानि हिरण्यं बाधितिष्ठेत् एतस्याग्नेरनभ्यारोहाय एतस्याग्नेरनभ्यारोहाय न कूर्मस्यास्नीयात् न कूर्मस्यास्नीयात् नोदकस्याघातुकान्येन मोदकानि भवन्ति नोदकस्याघातुकान्येन मोदकानि भवन्ति अघातुका आपः अघातुका आपः य एतमग्निं चिनुते य एतमग्निं चिनुते य उचैनमेवं वेद य उचैनमेवं वेद भद्रं कर्णे विशृणुयामदेवाः भद्रं पश्येमाक्षभिर्जत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः व्यशेमदेवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः यदक्षरपरभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देवा नारायणि नमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्वसा ईश्वरा अपराधसहस्राणि क्रियन्ते हर्निशन्मया दासोऽयमिति माम् मत्वा क्षमस्वसा ईश्वरा अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्षसा ईश्वरा हरिः ॐ तत्सत् श्रीसाईश्वरार्पणमस्तु।
With this, we come to an end to this week's Radio Sai Vedam Tutor. In the coming class, we shall continue with the Aruna Prashnam. Now it's time for us to go to the next segment of this Thursday's evening session, Radio Sai Bhajan Classroom, hosted by Brother Bishu. Sai Ram, and happy listening. Over to Brother Bishu. Sai Ram.